మీనాక్షరసమాయమధిగమ్యమేశ్వర కృత్స్నం వ్యాకరణం ప్రోక్తం తస్మై పాణినియే నమః. వాక్యతారం వరరుచిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్మి మునిత్రయం. మునిత్రయం నమస్కృత్య తదుక్తీః పరిభావ్య చ వైయాకరణ సిద్ధాంతకౌముదీయం విరచ్యతే. సిద్ధాంతకౌముద్యాః జంతపులింగప్రకరణే త్రయోవింశః భాగః. మార్చ్ మాసస్య చతుర్దశ దినాంక. ఇకారాంత పుల్లింగానాం ప్రక్రియ అధీయత. ఇకారాంత పుల్లింగేషు ఆదౌ ఔణాదిక ఈప్రత్యయాంత వాతప్రమీశబ్ద దృష్ట యత్ర సామాన్యత ఇకో ఎణసి ఇది ఎణాదేశు భవతి. తతః దీర్ఘం యంతాంత నదీ సమ్యక బహుశ్రేయసి శబ్ద. ఎత్ర న్యంతప్రయుక్తం కార్యం అర్థాత్ హల్యాభ్యో దీర్ఘాది సులోప తథైవ నదీసంజ్ఞా ప్రయుక్తాని కార్యాణి అంబార్థనద్యోర్హ్రస్వః ఇది సంబుద్ధి హ్రస్వః ఆణ్నద్యాః ఇది నితాం ఆడాగమః హ్రస్వనద్యాపో నుట్ ఇది నుడాగమః తథా నేరాం నద్యాం నీభ్యః ఇది జ్ఞేయ ఆమాదేశశ్చ భవతి. అపరశ్చ తాదృశేవ శబ్దః అతిలక్ష్మీ శబ్దః యస్య నదీ సంజ్ఞా అస్తి. యూ స్త్ర్యాఖ్యౌ నదీ నిత్యస్త్రీలింగత్వాతే నదీ సంజ్ఞా విద్యతే కింతు న్యంతత్వం నాస్తి. నీ ప్రత్యయాంతః న అయం తేన కిం భవతి సులోపః న భవతి. న్యంత ప్రయుక్తం కార్యమర్థాత్ సులోపః న భవతి కింతు నదీ సంజ్ఞా ప్రయుక్తాని కార్యాణి సంబుద్ధి హ్రస్వ ఆడాగమ నుడాగమ ఆమాదేశాః భవంతి. తేన అతిలక్ష్మీ శబ్దః ప్రాయేణ బహుశ్రేయసీవత్. ఇట్ ఇస్ ఆల్మోస్ట్ కంప్లీట్లీ లైక్ బహుశ్రేయసి ఎక్సెప్ట్ ఇన్ ప్రథమా విభక్తి ఏకవచన వేర్ ఇట్ గోస్ లైక్ అతిలక్ష్మీ అతిలక్ష్మి అతిలక్ష్మి వేర్ ద అదర్ వర్డ్ వుడ్ బి బహుశ్రేయసి బహుశ్రేయస్యౌ బహుశ్రేయస్య. సో దేర్ ఈస్ అ రీజన్ వై ఐఎమ్ రిపీటింగ్ దిస్ దో ఇట్ మైట్ సీమ్ లైక్ ఎవ్రీ క్లాస్ వి స్టార్ట్ అవుట్ విత్ దిస్ ఇట్ ఇస్ బికాస్ ఎస్ వి గో ఆన్ ఇన్ టు ఈ కారణ ద థింగ్స్ గెట్ వెరీ కన్ఫ్యూజింగ్ అండ్ అన్లెస్ వీ హ్యావ్ దిస్ క్లియర్ ఐడియా ఆఫ్ వాట్ are the karyas which are and what is the nimitta, what karya happens because of what nimitta. Unless there is a clear idea we tend to get lost. Okay, that is why I am repeating this often. So agrimah shabdah bhavati kumari iti pullinga shabdah, a very a surprising form and perhaps one of the unique features of Sanskrit as a language. These pratyayas are unfortunately they've gone out of use. Today we very very rarely use it commonly, but there are so many pratyayas which give such special meanings to a word. Okay, and those set of pratyayas are called there's a set of 12 pratyayas. They're called as the sanadyanta pratyayas, starting with san. Sanadyantaha dvadasha pratyayaha santi అతి విశిష్టేషు అర్థేషు ప్రయోజ్యంతే. వి హ్యావ్ ఇట్స్ అమేజింగ్ హౌ మచ్ మీనింగ్ అ సింగిల్ వర్డ్ క్యాన్ కన్వే. ఐఎమ్ షూర్ ఎవ్రీబడి మస్ట్ బి ఫెమిలియర్ విత్ ద సన్ ప్రత్యయ. జ్ఞాతుమిచ్చతి జిజ్ఞాసతే, గంతుమిచ్చతి జిగమిసతి జిగమిషతి క్షమ్యతాం, గోస్ ఆన్ పాతుమిచ్చతి పిపాసతి. అండ్ యూ కెన్ యాడ్ సన్ టు ఎనీ ధాతు ఇన్ ద సెన్స్ వాంట్ టు. He who wants to go, it is called jigamishuho or jigamishati. And he who wants to see would be called didrikshate, or he who wants to hear would be shushrushate. So on, you can add the san pratyaya to any dhatu to get forms, right? And on the san again you can go on adding the 10 lakaras and it goes on. So that is why the world of Sanskrit vocabulary is very very huge. So you have 2000 dhatus, to each of these you can add san, and once you add san again you can go on making forms out of san. Okay, actually san is one of the most common pratyayas in that set. Along with san there are other pratyayas in those set, like you have nich is also fairly common. You have young look, you have kvip and kyach kamyach and so on. What is the speciality of these things is the sutra tells sanadyantaah dhatavah. Whatever word which ends in any of these suffixes will become a dhatu by itself. We know that the original dhatus, they are limited in number. Bhuvadayah dhatavah, only those which have been told by Panini in that set of Bhuvadi, which is around 2000 words, they are all called dhatus. They are the original or the primary dhatus. But you get a set of secondary dhatus by adding the suffixes called the sanadyanta, the sanadis. Okay, it's a set of 12 suffixes. Whenever you add any of these suffixes, the resultant is also a dhatu, which we call a secondary dhatu. Okay. So, what do we add these sanadis to is also a question. The sanadis, some of those pratyayas are added to dhatus themselves, whereas some are added to pratipadikas. So, using sanadis, you can either convert a primary dhatu to a secondary dhatu, or you can convert pratipadika to dhatu. Okay. So, both cases are seen in sanadis. And you find that once you have the sanadyanta dhatus, again you can convert them back to pratipadikas. It goes on. So here he deals with a very special word, which is called kumari. Kumari, as we all know, is a strilinga word. Right? Kumaraha, kumari. A young girl is called a kumari. Vayasi prathame ityadina, kumara iti shabdasya, neep pratyaha bhavati, kumari. So kaumara is one of the stages of life. You have kaumaram, yavanam, jara. There are different systems of classification. Like they'll say there is Balya, Kaumara, Yavana, Jara, or there is Balya, Kishora, Kumara. Different methods of classification are available. But in general, Kumara is a young boy and Kumari is a young girl. Okay. So in that sense, Kumari is a strilinga. Ikaranta strilinga. But this kumari, the pratipadika kumari, is now converted to a pullinga pratipadika. And how do we do it? We can't do it directly. So the process is you convert it into a dhatu and you convert it back to a pratipadika. Okay. So kumarim ichanna kumari va acharanma brahmanaha kumari. There are two nishpatis. One, kumarim ichanna kumari. Or Kumariva Acharan Kumari. So it need not be a Brahmin. He is given the word Brahmanaha to show that it is a Pullinga. It can be any man. Okay. Kumarim Ichchan. He who wants a girl. That is, he who wants a child. Like Putram Atmanaha Ichchati Putri Yati. Similarly, who wants a girl child. Kumarim Atmanaha Ichchati Kumari Yati. You can do it. That is a Dhatu. Okay. Or Kumari Iva Acharan. He who behaves like a Kumari. In what way, he has not specified. It depends on the context, obviously. Just like you'll say, he's behaving like a child. This is one special usage. So what happens when we do this? This is the question. There are two nishpattis. Khyajantat, acharak vibantatva, kartarik vip. So what you do is, you take the word kumari, which is strilinga. To it, you can either add a khyach suffix or a kvip. Achara kvip is what we call it. Both of these belong to the sanadyantaha. And using these, you can convert that kumari to a dhatu. The form would be kumariyati. Okay. And now again you add kvip, kartari kvip to that particular dhatu to get back to the pratipadika as kumari. So how exactly do we do this derivation? Very interesting. If you go to the Balamanorama, you see that he explains it very clearly, step by step. For those who do not have the Balamanorama, here it is. Taking the pratika kyajanta diti. Iti arabhyate Balamanoramayam. Katham kumari shabdha nishpadyate. Iti vivranoti. Kumarim atmanaha ichchati. Ityarthe supa atmanah kyach. Iti kyach. Anena sutrena kyach pratyah kriyate. Kumari shabdasya. Kachavitau kyach pratyaye. Kakaraha chakarascha itsamyam prapnoti kachau kakaraha chakarascha itau itsamyakau bhavataha sanadyantaha iti kyajantasya dhatutvat tadavayava supaha amaha supodhatu pratipadikayohu iti luk kumari am ityasti kumarim atmanaha ichyati iti dvitiya vibhakti kumari am ityasmat kyach pratyaha kriyate ya iti shishyate kachav itau yakarah shishyate kumari am ya asya am pratyayasya lopah karaniyah katham lopah bhavati supodhatu pratipadikayoho iti sutrena lopah kriyate kumari ya ityasti अयं धातुः अस्मात् धातोः क्विप् च इति सूत्रेण कर्तृत्वे क्विप् प्रत्ययः विधीयते. यः कुमारीम् आत्मनः इच्छति सः इत्यर्थे क्विप् प्रत्ययः क्रियते. क्विप् प्रत्यये कपौ इतौ ककारः पकारश्च इत्संज्ञां प्राप्नोति इकारः उच्चारणार्थः. ऐल् कम् बेक् टु दिस्. सो यु हाव् क्विप् यु हाव् क्व ईप् ओन्ली द वकार रिमेन्स्. वकारे सति अतो लोपः कुमारीय इत्यत्र अकारस्य लोपः क्रियते. लोपो व्योर्वलि इति यकारस्य लोपः भवति. वेरपृक्तस्य इति वलोपः कुमारी इति रूपम्. इन् सेण्टेन्स् इट् काण्ट् गेट् क्लियरर् देन् दिस्. बट् इन् केस् यु जस्ट् सी हौ इट् ट्रान्स्लेट्स् इन् टु द यूजुवल् वे आफ् रैटिङ्ग् द प्रक्रिया. कुमारीम् आत्मनः इच्छति इति विग्रहः. तदा किं भवति? कुमारी अम् इत्यस्ति द्वितीयविभक्तिः. ह्यच् इति प्रत्ययः सूत्रं सुप आत्मनः क्यच् सुपः सुबन्तात् आत्मनः आत्मार्थमिच्छति इत्यर्थे क्यच् प्रत्ययः भवति इति सूत्रार्थः. कुमारी अं य कचावितौ इति उक्तं ककारस्य लशक्वतद्धिते इत्यनेन इत्संज्ञा सकारस्य हलन्त्यमिति इत्संज्ञा. यु आर् लेफ्ट् वित् य यु अण्ड् अ. तस्य लोपः इति ककारचकारयोः लोपः. कुमारी अं य इत्यस्ति. इदानीम् अस्य अम् प्रत्ययस्य सुपोधातु प्रातिपदिकयोः इति लुक् भवति. सो दिस् इस् अ सूत्र विच् टेक्स् आफ् द प्रत्यय द सुप्रत्यय विच् वेन् इट् इस् पार्ट् आफ् अ धातु आर् अ प्रातिपदिक. नौ दिस् होल् थिङ्ग् कुमारी अं य गेट्स् धातुत्व बै सनाद्यन्ता धातवः. Actually, this step should come earlier. This whole thing is called dhatu by sanadhyanta dhatavaha. Since it is a dhatu, any supratyaya which is a part of a dhatu will get deleted. So we delete the am. You are left with kumariya. Now this is a dhatu. Okay? You can do it like kumariyati, kumariyataha, kumariyanti. Like you would do patati patataha patanti, tatha asyabhi rupani sambhavanti. But we do not want a dhatu now. We want a pratipadika. So what do? We add another quip suffix to it. To all dhatus, you can add a pratyaya which is called quip. Quip cha ityanena kartrarthe quip pratyaya kriyate. Kumariya quip. Atra kapavitau. Kakara pakarayohu itsamya. Kakarasya punaha lashakvatadhyate iti. Pakarasya halantyam iti itsamya. Tayohu lopaha v iti shishyate. इदानीं किं भवति? कुमारीय व् इति उच्यते. अत्र अकारस्य कुमारीय इति यः अकारः तस्य अतोलोपः इत्यनेन लोपः भवति. सो इट् इस् अ सूत्र विच् यु विल् नीड् नाट् नोट् द निमित्त. इट् इस् अर्धधातुक उपदेशकाले यद् अकारान्तं तस्य अकारस्य लोपः भवति. सो यु रिमूव् द अकार. यु लेफ्ट् वित् कुमारीय व्. अस्य यकारस्य पुनः लोपो व्योर्वलि इति सूत्रेण वेनेवर् यकार इस् फालोड् बै एनी वल् एनी लेटर् एनी व्यञ्जन इट् गेट्स् डिलीटेड्. सो यु डिलीट् यकार कुमारी व् एस् यूशुवल् द वकार इस् डिलीटेड् बै वेरप्रत्तस्य क्विप्. ऐ हव् आल्वेस् टोल्ड् यु दट् नथिङ्ग् रिमेन्स् इन् क्विप् बै सेल्फ़् इट् गेट्स् डिलीटेड्. बट् द पायिण्ट् इन् ड्यूरिङ्ग् द प्रत्यय इट् शुड् बि क्लियर् नौ. We've seen many cases where we do the pratyaya, delete it, and there is nothing, no visible change in the pratipadika, right? But you can see here that there is a change in pratipadika depending on quip. The pratipadika, the dhatu we started with was kumariya. Now it has been reduced to kumari because of the quip pratyaya, right? Now this kumari gets a pratipadika samya by krittartita samasascha, okay? So we started with kumari and came back to kumari. But what did we do in the meantime? We have added a speciality to it that it has now got a dhatu samya also. Okay? It was nyanta and nadyanta. Now we have also added it that it is a dhatu. It was a dhatu. From dhatu we have derived it. So now it also has the property of dhatutva. Okay? Is the prakriya clear? There is a question in between. But any questions about the prakriya? हाँ Yeah. Wherever, huh? Right. No, I didn't get the question. Atolopaha says, Ardhadhatuka Upadeshakale Yadakarantam, Tasya Lopahasyad Ardhadhatuke Pare. So whenever you are starting, you do an Ardhadhatuka Pratyaya, if it is Akaranta, so when followed by that particular Ardhadhatuka, the Akara gets dropped. That is the meaning of Atolopaha. Okay. So why we do Vera Pratyaya later is because of that. There are some karyas which depend on the Pratyaya being there. True that sometimes you can do Pratyaya Lope Pratyaya Lakshanam, but it is easier to have it there and show that it is the Nimitta and then do it and then send away the Vakara. Okay. We first do whatever karya which depends on the Pratyaya. Tat Pratyaya Nimitti Krite Yani Karyani Ishyante Tani Sarvani Kriyante Ante Vakarasya Lopaha Kriyate. That is the procedure generally. So, is there any question? I didn't get if you had any other question. Huh. Okay, there are a few more questions. In this case, because of kitch initially, does naha kye apply before make it a kate tarika? I don't see why naha kye should apply here. It is naha, right? Nakarantasya kyechi pare padatvam asti. There is no nakaranta here. And, anyway, there is no opportunity for it being anyway, it cannot be a pada till we... Oh, okay. Do you mean to say kumari am? It is sthite padatvam. Okay. Sthiti cha. Probably. Is there any karya which is depending on the padatva? I have to think. I mean, if it is there, yes, obviously. And nothing else will be there. One second. So we have this kumari ya. Nahakye. I don't have to think if we need it, as in there are some cases where if it were a pada before it, there could be some karya which is happening, but right now I do not see any such karya which would happen if it were a pada and prevented if it were not a pada. So her question is, there is a sutra called Nahakye, which says Kyajante Pare or Kye Pare Nantameva Padam Nanyat. So if it is, even though you're doing it on Subanta, so since it is Kumari Am, this is Subanta and this is Pada. So, but when followed by Kye, the sutra says that if it is Nakaranta, then only it becomes a Pada, and if it is not, then it is not a Pada. Okay. So that question will arise if there is some Karya which would happen here, depending on the Pada Samya. But right now I cannot see any such Karya. So maybe that is not relevant here. And there's one more question. Okay. Finally, is Kumari a Pratipadika and Dhatu also, or just Pratipadika? It is a Pratipadika, right? But it also has the Bhutapurva Dhatutva. Right. It's a Pratipadika which also has the property of Dhatutva. So it does not mean you can add a thing Pratyaya to this. Okay. So that is different. Kumariya is a proper Dhatu, where you can add ting pratyayas and make it kumariyati, kumariyataha, etc. But now the Kumari that we have is not a dhatu as such. Okay, so it is actually a pratipadika. Right, it is a pratipadika, but it carries over the property of dhatutva, and we use that dhatutva for some purposes. अस्तु यम एका निष्पत्ति ही कुमारी इत्यस्मात् किम क्रियते क्यजन्तात् आचारक विबन्तात्वा इति उक्तम् क्यजन्तात् क्यच् प्रत्ययः कृतः क्यजन्तात् कर्तरिक विप्रत्ययः कृतः पुनः कुमारी इति प्रातिपदिकम् ईकारान्तं प्रातिपदिकम् पुल्लिंगे अस्ति So, there is a question. How is it different from Rama Shabda, which is also from Dhatu? True that it is from Dhatu, but Rama itself is not a Dhatu. Rama iti Dhatu, akaraha pratyasya bhagaha. Now, Rama together is not a Dhatu. But the difference here is, you have Kumari is a pratipadika, and then you have a kyach pratyaya. When you put together, Kumariya itself is a Dhatu. From that Dhatu, you have removed the akara and yakara, but whatever is left still is a dhatu, because the whole thing, the kumariya, had dhatu samya. That is why we now say that dhatu samya is carried over to kumari even after the yakara and akara have been deleted. But the rama as a samudaya never had dhatu samya. Kevalasya ram iti dhatu ityasya dhatu samya asit akara kevalam pratyaha. Rama iti samudayasya kadapi dhatu samya nasit. So that samudaya is not, it is not considered as a dhatu. Okay. Here, kumariya itself, the kyajantasya samudayasya eva sanadyanta dhatavaha ityanena dhatu samya vidyate. Tena kumari ityasya api dhatu samya anuvartate. Okay. Athava aparanishpattihi pradarshyate acharak vibantat. This is a pratyaya where you add two vip pratyayas. Kumari iva acharati ityarthe sarva pratipadikebhyaha vip vaktavyaha iti vartikena kvip pratyaya kriyate. So kumari iti pratipadikat kvip iti pratyaya kriyate. Vip pratyaya kapav itav kakara pakara yoho itsamya vu ityasti vera pratyasya iti vakara lopaha. So kumari ityeva dhatu asya dhatoho sanadyantaha ityanena dhatu samya asti tena kartari kvip kriyate. So you do achara kvip iti pratipadikat kriyate. So achara kvip is a kvip which is used to convert pratipadika to a dhatu, whereas kartari kvip converts a dhatu to a pratipadika with generally with no change, or sometimes with some change which has happened. So sanadyantaha iti dhatutvat kartari kvip tasya cha purvavati kritsna lopaha. So similarly, the quip completely gets deleted. Kumari iti rupam. Okay. So here in prakriya there is nothing. Kumari ityasmat quip pratyaha kriyate. Tatra itsamya kriyate vakarasya vera pratyasya iti lopaha. It is still left with kumari. Asya to sanadyanta dhatavaha iti dhatu samya. Punaha kartrathe quip cha ityanena quip kriyate. Kumari quip. Tatra punaha itsamya vera pratyasya iti vakara lopaha. Kumari ityeva bhavati. Krittadhita samasascha ityanena pratipadika samya. Okay, so here there is absolutely no change which is happening in the prakriti part. The prakriti part remains as it is. Only you add the pratyaya and delete it twice, and the change you have achieved is now it can be in any of the lingas. Kumari iva acharati pullingepi bhavitumarhati strilingepi bhavitumarhati napumsakepi bhavitumarhati. Idanim pullinga kumari shabdam svikurvaha. Let's go forward with Kumari, knowing that it is Ikaranta, Pullinga, it has Dhatu Samya, and the original Kumari was Nyanta, so this is Nyantanta, and since the original Kumari Shabda had Nadi Samya, we have Prathamalinga Grahanam Chaiti Vartikena, Asyapi Nadi Samya Vidyate. Ubhayathapi Nishpattav, Achara Kyajantat Kartari Kripiva. Kyajantat kartari kvipi athava acharak vibantat kartari kvipi kim kim bhavati nyantantvam asti naditvam asti dhatutvam asti tat prayuktani karyani bhavanti. So this kumari, this word kumari will get karyas which is depending on all three properties. whatever depends on Nyanta, that also will happen. Whatever depends on Nadi Samya, that also will happen. And in addition, whatever is dependent on a Dhatu Samya, that also will happen. So the obviously we have seen what are the Nyanta Prayuktani Karyani, Nadi Prayuktani Karyani. Dhatutva Prayuktam Karyam Kim? Iti Drashtavyam. Kumari Suprateha. Kim Bhavati? Now you should be able to tell. I have been telling this. Suprateya Pare Kim Bhavati? Satyam. Sulopaha. Nyanta Prayuktam Karyam Bhavati Iti Uktam. Nyanta Prayuktam Kim Karyam Bhavati? Halnyabhyo Dirghat Sukasya Praktam Hal. Hal ni ap dirghat nyantat paraha sutisi ityetat apraktam hal lupyate iti uktatvat supratyasya lopo bhavati kumari iti rupam kumari iti ikaranta pullingasya prathama vibhakta ekavachane rupam kumari kumari au iti sthite kim bhavet so what should happen when there is kumari au usually what we do is इको एनसी इत्यनेन एनादेशः क्रियते किन्तु एनादेशे प्राप्ते अपरं सूत्रं भवति अत्र अचिष्णु धातु भ्रुवा युवोर् इयङ्वाङो इति सूत्रं चत्वारि पदानि सन्ति अचि ष्णु धातु भ्रुवा दट् इस् अ टैपो हियर् इट् इस् नाट् स्नु इट् इस् ष्णु ष्णु धातु भ्रुवां युवोः इयङ्वाङो अचि इति सप्तमी विभक्तिः कोऽर्थः अचि परे अच् अजादौ प्रत्यये परे श्नु धातु भ्रुवां युवोः युवोः युव् इति इकारः उकारः यु इति भवति तस्य षष्ठी द्विवचने युवोः गुरु इत्यस्य यथा गुर्वोः तथा यु इत्यस्य युवोः इकारश्च उकारश्च यु तयोः युवोः इकार उकारयोः केषाम् इकारोकारयोः श्नु धातु भ्रुवां श्नु इति प्रत्ययः विकरणप्रत्ययः स्वादिभ्यः श्नुः सो एनी धातु विच् कम्स् इन् द स्वादिगण द फिफ्त् गण विल् गेट् श्नु अस् द विकरणप्रत्यय यु हेव् सु इट् बिकम्स् सुनोति यु हेव् धू इट् बिकम्स् धुनोति वेर् एवर् यु हेर् दट् नो इट् इस् द श्नु प्रत्यय श्नु धातु धातोः इकारः उकारः अथवा भ्रुवां भ्रू शब्दस्य उकारः एतयोः यङ् उवङ् आदेशौ भवतः इकारस्य स्थाने यङ् इति आदेशः भवति उकारस्य स्थाने उवङ् इति आदेशः भवति अङ्गस्य इत्यधिकारः श्नु प्रत्ययान्तस्य विवर्ण उवर्णान्तस्य धातोः भ्रू इत्यस्य च अङ्गस्य यङ् उवङौ स्तः अजादौ प्रत्यये परे आल् वर्ड्स् आर् इन् द Sutra itself, there is no anavritti except Dangadhikara. So it's, the meaning is very obvious. Shnu pratyayantasya. If there is any word which is ending in shnu pratyaya. So that we'll see only in Tingantasa. So forget about it now. Ivarna uvarnantasya dhatoho. Any dhatu which is ending in ikara or ukara. And bhru, for the word bhru. We are currently not dealing with bhru. So forget that also. We have to concentrate now on only this. Ivarna uvarnantasya dhatoho. Yadi dhatuhu ivarnantaha uvarnanto vabhavati. Nadantasya angasya iyang uvangau staha. Iyang uvang iti adeshau bhavataha ajadau pratyaye pare. When followed by an ajadi pratyaya. Now we have kumari which is an ikaranta dhatu. Right? Since it has dhatutva, it is a dhatu which is ending in ikara. इवर्णान्तस्य धातोः इयङ् उवङ् इत्यत्र किं भवेत् ङिच्च इति अन्तादेशः सो बोत् दीस् सिन्स् ङकार इस् इत् दे विल् रिप्लेस् द एण्डिङ्ग् आफ् दिस् दट् इस् इट् विल् रिप्लेस् इदर् इ आर् उ अन्तरतम्यात् एः इयङ् ओः उवङ् इयङ् इत्यत्र इकारः अस्ति इकारस्य स्थाने इयङ् इति आदेशः क्रियते उकारस्य स्थाने उवङ् इति आदेशः इति यङि प्राप्ते सो बै दिस् वि नौ हेव् कुमारी औ कुमारी इति इवर्णान्तः धातुः तदन्तस्य अङ्गस्य अजादौ प्रत्यये परे औ इति प्रत्यये परे यङ् इत्यादेशः भवति सो वि शुड् गेट् the E should be replaced by N. There should have been N, but overruling N, we have Vipratishethe Param Karyam. So we have Achishnu Dhatu Bhruvam Ivor Yangu Ittenena Yang Adeshaha Prapnoti Iti Yangi Prapte. But actually Yang does not occur because there is another sutra which will overrule this sutra. Any questions about this sutra? ఏరనేకాచో సంయోగ పూర్వస్య. సో ఫార్ ఎన్ వాజ్ ది ఈజియెస్ట్ ఆఫ్ సంధీస్ బికాస్ దేర్ ఇస్ ఓన్లీ వన్ సూత్ర విచ్ ఎవర్ డీల్స్ విత్ ఎన్ సంధి విచ్ వాజ్ ఈకో ఎనర్జీ. ఫర్ ఎనీ అదర్ థింగ్ వీ హ్యాడ్ మెనీ సూత్రాస్ ఆర్ వార్తికాస్ అండ్ ఆల్. ఎన్ దేర్ వాజ్ ఓన్లీ వన్ సూత్ర బట్ దిస్ ఇస్ ద సెకండ్ వన్. ఏరనేకాచో అసంయోగ పూర్వస్య ఏహే అనేకాచ అసంయోగ పూర్వస్య ఇది పదత్రయం విద్యతే. అంగస్య ఇత్యధికారః ఇణో ఎణ్ ఇతి సూత్రాత్ ఎణ్ ఇతి అనువర్తతే. అచిష్ణు ధాతు భ్రువాం యోర్యంగో యంగమంగో ఇత్యతః ధాతుః ఇతి అనువర్తతే. కః అర్థః ధాత్వవయవ సంయోగపూర్వో నభవతి యః ఇవర్ణః తదంతో యో ధాతుః తదంతస్య అనేకాశః అంగస్య ఎణ్ స్యాత్ అజాదౌ ప్రత్యయే పరే. సో దర్ ఇస్ ధాతు అండ్ దర్ ఇస్ విభక్తి విపర్య. దర్ ఇస్ లాట్ ఆఫ్ circus which has happened in deriving this particular sutra because it is very exact. Ajadav pratyaye pare, we will go from the end. Ajadav pratyaye pare, when followed, excuse me please, just a moment. అజాదౌ ప్రత్యయే పదే ఎణ్ భవతి వెన్ ఫాలోడ్ బై అజాది ప్రత్యయ వెన్ ధాత్వయవ సంయోగపూర్వో నభవతి యః ఇవర్ణః. ఇవర్ణః తదంతో యో ధాతుః. దర్ ఇస్ అ ధాతు విచ్ ఇస్ ఎండింగ్ ఇన్ ఇకార అండ్ బిఫోర్ ద ఇకార దేర్ షుడ్ నాట్ బి ఎ సంయోగ. ఫర్ ఎగ్జాంపుల్ లెట్ మీ సే దర్ ఇస్ అ ధాతు విచ్ ఇస్ కాల్డ్ శ్రీ. శ్రీ ఇది ధాతుః. తత్ర కిమ్ అస్తి షకార రేఫయో సంయోగః సంయోగానంతరం ఇవర్ణః అస్తి. సో తాదృశం న భవేత్. ధాత్వవయవ సంయోగపూర్వః న భవతి యః ఇవర్ణః. యత్ర ఇవర్ణస్య ధాత్వవయవ సంయోగపూర్వత్వం నాస్తి తదంతః యః ధాతుః తాదృశః యః ఇవర్ణః తదంతః తదంతః యో ధాతుః తదంతస్య అనేకాచోంగస్య. నౌ దట్ ధాతు షుడ్ బి అట్ ద ఎండ్ ఆఫ్ ఎన్ అంగ విచ్ ఇస్ అనేకాచ్. తస్య ఎండ్ స్యాత్ అజాదౌ ప్రత్యయే పరే. వి సీ ఆర్ దిస్ అండ్ సీ కుమారీ ఔ ఇత్యస్తి. కిమస్తి అత్ర ఈ ఇవర్ణాంతః ధాతుః అస్తి రైట్. ద ఫస్ట్ క్వశ్చన్ ఇస్ దెర్ షుడ్ బి అ ధాతు విచ్ ఇస్ ఎండింగ్ ఇన్ ఇకార అండ్ దెర్ షుడ్ నాట్ బి అ సంయోగ ప్రిసీడింగ్ ద ఇకార. కుమారీ ఇది రేఫ ఏవ అస్తి సంయోగః నాస్తి. సో దట్స్ ద సెకండ్ కండిషన్. ద ఇకార షుడ్ నాట్ బి ప్రిసీడెడ్ బై అ సంయోగ అండ్ దెన్ ద అంగ ద అంగ విచ్ ఇస్ ఎండింగ్ ఇన్ దట్ ధాతు షుడ్ బి అనేకాచ్. కుమారీ ఇత్యస్తి బహవః అచః సంతి. ఉకారః ఆకారః ఈకారః ఇది త్రయః అచః సంతి అంగే. తస్మాత్ కుమారీ ఇది అనేకాచః అంగస్య తస్య ఎణ్ భవతి అజాదౌ ప్రత్యయే పరే. ఔ ఔకారాదౌ ప్రత్యయే పరే అస్య అంగస్య ఎణాదేశో భవతి ఇది సూత్రార్థః. క్లియర్. ఇవర్ణః ఈకారః ఇవర్ణాంతః ధాతుః అసంయోగపూర్వః. సంయోగః ఇవర్ణాత్ పూర్వత్వేన న భవేత్. అనేకాచ్ అంగం స్యాత్. కుమారీ ఇది అంగే త్రయః అచస్సంతి తేన ఇదం అనేకాచ్ అంగం తాదృశస్య అంగస్య ఎణాదేశో భవతి. సో ఇనీషియలీ వి గాట్ ఇకో ఎనర్జీ. వీ షుడ్ హ్యావ్ అప్లైడ్ ఇకో ఎనర్జీ బట్ ఓవర్ రూలింగ్ ikovenachi, there was achishna dhatu bhumam yor yang avau, which would have given an iyang adesha. But overruling that iyang, again there is yan, but by a different sutra, eraneka acho sanyoga purvasya. Here. So yadi dhatutva masti. So this is the karya which is dependent on dhatutva. Kim bhavati, yanadeshaha bhavati, eraneka acho sanyoga purvasya, iti sutrena. Kumari, kumaryau, kumaryaha. Sarvatra, asmin shabde, wherever there is an option for yan, there will be yan, but the sutra is eranekacho sanyoga purvasya. Kumaryau, kumaryaha, ubhayatrapi anenaiva yan. He kumari su, kim bhavati atra? He kumari su. What will happen? No Deerga, but how? Kim Sutram? You say it will be He Kumari. Kena sutrena. Rupam samichinam. He Kumari. Ambartha nadyor hraswaha. Ambarthanam nadyantanam. That is why I kept repeating. You have to remember what are all the different properties that the word possesses. One thing, it has nyantatva. Then it has naditva. Nadittvam nimitti kritya ambartha nadyor hraswaha ityanena hraswadeshaha bhavati. Sambuddhau parataha ambarthanam nadyantanam cha hraswasyat. He kumari. So, tataha. Hraswe krite. एंग हस्वात संबुद्धे हैं हस्वान तत्वात एंग हस्वात संबुद्धे हैं इतने ना संबुद्धि लोपे हे कुमारी इति रूपम् हे कुमारी हे कुमार्यो हे कुमार्यः द स्पेशलिटी ऑफ दिस यन इज अमि शशिच कुमार्यम् कुमार्यः दिस यन विल ओवररूल अमि पूर्वः आल्सो. Remember, wherever ikoenasitena anadesha bhavati, tada kuma etha vataprami am itasthite, vataprami au itasthite, ikoenasi itena anadesha vataprami vataprami am itasthite, to amipurvaha itena purvarupe, vataprameem iti bhavati. Always, so far, whatever we have seen, everywhere, if it is ampratyaya, it is always amipurvaha. But, hiranekacho sanyoga purvasya iti tu, amipurvaha ityasyapi apavada bhutam. Not apavada. Vipratishedha paratvam bhavati. It is not an apavada. Ubhayohu praptayohu. Amipurvaha ityanena purvarupe prapte. Hiranekachaha ityanena yanadeshe prapte. Paratvat yaneva bhavati. Tena kumaryam iti rupam. Evameva shasi kumari as. Prathamayohu purvasavarnaha ityanena purvasavarna dirghe prapte. Tadbadhitva eranekacho sanyoga purvasya iti anadeshe kumaryaha. Ami purvarupam. So this is again, this sentence is from the Balamanorama. You have to see that there's very lot of cases where Balamanorama makes it very very clear. So what does he say? Ami purvarupam shasi purvasavarna dirghan cha badhitva yangi prapte. So what happens first is yang achishnu dhatu bhruvam yor yango iti sutrena purvarupam purvasavarna dirgham purvasya purvasavarna dirghasya cha badho bhavati ami purvarupam shasi purvasavarna dirgham cha badhitva yangi prapte tadapavade eranekacho iti yani ami kumaryam shasi kumaryaha iti rupam. Kumaryam, kumaryau, kumaryaha. Sarvatra, eranekacho sanyoga purvasya iti anadeshaha. Similarly, kumarya, kumari bhyam, mari bhihi. Nge pratyaye pare kumaryai. Katham rupam kumari e ityasti. Kim bhavati? Katham prakriya? कुमार्यै कथं भवति प्राणनद्याः आटश्च अस्य नदी सम्या अस्ति पुनः पुनः उच्यते नदीसंज्ञायाः सत्त्वात् आण्नद्याः कुमारी ए इत्युच्यते आण्नद्याः इति प्रत्ययस्य आडागमः कुमारी आ ए आटश्च इति वृत्तिः कुमारी ऐ ततः कुमारी ऐ इत्युच्यते किं भवति केन सूत्रेण एतनेक अचोसंयोगपूर्वस्य एव्रिवेर् इन् कुमारी इट् इस् एतनेक अचोसंयोगपूर्वस्य इत्यनेन यणादेशः तेन कुमार्यै पुनः कुमार्याः कुमार्याः कुमारी अस् नसि नस् इत्येतयोः आडागमे कृते वृद्धौ कृतायां कुमारी आस् इत्युच्यते एरनेकाचो संयोगपूर्वस्य इत्यनेन यणादेशे कुमार्याः सर्वत्र एरनेकाचो इत्येव यणादेशः कुमारी आम् पुनः नदीत्वनिमित्तं प्रयुक्तं ह्रस्वनद्यापो नुट् नद्यन्तात् परस्य आमः नुडागमः स्यात् कुमारी न् आम् अट्कुपाङ्गं व्यवायेऽपि इति णत्वे कुमारीणाम् अतः कुमारी नि किं भवति कुमारी इ सप्तम्येकवचने किं रूपं का प्रक्रिया मसूजि सो ङेः आम् आदेशः भवति नदी आप्नेभ्यः तेन कुमारी आम् नेक्स्ट् नो ह्रस्वनद्यापोनुट् वि डिस्कस् दट् ह्रस्वनद्यापोनुट् विल् नाट् अप्लै वै विल् इट् नाट् अप्लै कुमारी आम् इति स्थिते किं भवति वेरि स्लो रेस्पान्सस् टु दिस् इस् अ वेरि हेवि लेसन् आर् अ वेरि बोरिङ्ग् लेसन् आर् अय्यो हलो हलो ओके ऐ थिङ्क् आडियो इस् कट् फर् शार्ट् टैम् हा सो किं भवति कुमारी आम् इति स्थिते
ஹலோ. ஓ ஐம் சாரி, ஐ டோன்ட் நோ, தேர் வாஸ் ஆடியோ வாஸ் லாஸ்ட் ட்வைஸ் ஆர் த்ரைஸ். ஹா யா, குமாரி. ஆம் ஓகே. ஸோ தா கிம் பவதி ஆண் நத்யாஹ ஆடாகமஹ ஆட் பரத்வாத் ஆட். ஸோ தேர் ஷுட் ஹவ் பீன் ஹஸ்தநத்யா போன்னுட்டு, பட் பிகாஸ் இட் இஸ் பரசூத்ரா, ஆண் நத்யாஹ வில் ஓவர் ரூல் நுடாகமா. ஸோ வி ஹாவ் குமாரி ஆ ஆம் ஆட்டஷ்டி விருத்தௌ குமாரி ஆம் இதானீம் ஏரநேகாச்சோ சயோகபூர்வஸ்ய இத்தனேனயணி குமார்யாம் இது ரூபம். குமாரீணாம் இத்தியத்ர நத்யம் தத்வாத்னுட்டு குமார்யாம் நேராம் நத்யாம் நீபியஹ ஆண் நத்யாஹ ஆட்டஷ்ட ஏரநேகாச்சோ சயோகபூர்வஸ்ய இது அனாதேசஹ குமார்யாம் குமார்யோஹ குமாரீஷு பவதி இகாராந்தஹ புல்லிங்கஹ குமாரி சப்தஹ கதம் ரூபாணி. குமாரி குமாரியௌ குமாரியஹ ஹே குமாரி ஹே குமாரியௌ ஹே குமாரியஹ. ஸோ வாட் ஆர் வி டூயிங் ஹியர் பேசிக்கலி? ஆதௌ ஞந்தத்வாத் சுலோபஹ குமாரி இத்யத்ர ஞந்தம் நிமித்தீகிருத்ய ஹல்யாபியோ தீர்கா திதிஸ்ய பிரக்தம் ஹல் இத்தனேன சுப்ரத்யஸ்ய லோபோ பவதி இது ஏகம் காரியம். ததஹ தாதுத்வாத் ஏரநேகாச்சோ சயோகபூர்வஸ்ய இது அனாதேசோ பவதி. சின்ஸ் குமாரி இஸ் நாட் அ பியூர் பிராதிபதிகா, குமாரி இத்தியஸ்ய கியஜந்தஹ கியஜ் பிரத்யஹ ஆச்சாரக்வி பிரத்யயோ வா கிருதஹ தேன பிரத்யேன சனாத்யந்தா தாதவஹ இத்தனேன தாது சம்யா கீதா. குமாரீய இத்தியஸ்ய வா கேவலஸ்ய குமாரி இத்தியஸ்ய வா தாது சம்யா கிருதா. ஸோ வி டிட் அ வி கன்வெர்ட்டட் இட் டு எ தாது. நெக்ஸ்ட் வி கன்வெர்ட்டட் இட் டு அ பிராதிபதிகா பை ஆடிங் க்விப். இதானீம் சமுதாயஸ்ய கிருத்தஜித சமாசாச்ச கிருதந்தத்வாத், சின்ஸ் க்விப் இஸ் அ கிருத் பிரத்யய சமுதாய விகேம கிருதந்த கிருதந்தத்வாத் பிராதிபதிக சம்யா அஸ்தி. கிந்து யா தாது சம்யா கிருதா சா ந அபகதா. வாட் எவர் யூ கால்ட் இட் அ தாது சம்யா, தெர் இஸ் நத்திங் டு சே இட் இஸ் நாட் அ தாது நௌ. இட் வாஸ் அ தாது, த சம்யா வில் ரிமைன், ரைட்? ஸோ ஒன்ஸ் யூ கிவ் இட் அ நேம், யூ கே நாட் டேக் அவே த நேம் அன்லெஸ் தெர் இஸ் சம்திங் எல்ஸ். ஃபார் எக்ஸாம்பிள் யூ ஹாவ் ரம் ஆ, ஸோ தட் இஸ் த எக்ஸாம்பிள் ஐ வாஸ் ரவிசந்தன் ஜி வாஸ் அஸ்கிங். யூ ஹாவ் ரம் தாது, யூ ஆட் அ கை பிரத்யய. பூவாதயோ தாதவஹ இத்தனேன ரம் இத்தியஸ்ய தாதுத்வம் அஸ்தி. ரம் அ இதி சமுதாயஸ்ய கிருதந்தத்வாத் கை இத்தியஸ்ய கிருத் சம்யா அஸ்தி, சமுதாயஸ்ய கிருதந்தத்வம் அஸ்தி. ஓகே, நௌ தெர் இஸ் நத்திங் விச் ஹஸ் பீன் which has given the samudaya of ram plus a dhatu. Ram plus a has never been a dhatu, and that is why when we consider the pratipadika rama, it is not a dhatu. But since ram is a dhatu, even when it is part of rama, the ram part would be a dhatu, but we cannot use it because the samudaya rama is not a dhatu. Rama has never been called a dhatu. But here when we say kumari, we do quip, right? Now this kumari got to be called a dhatu. Now we add quip, and using pratyaya lakshana asya kridan tatvat pratipadikatvam asti, kintu kevalasya kumari iti samudayasya dhatutvam api asti. Since it once got the samya called dhatu, even now it is called a dhatu. There is nothing which will prevent it from being called a dhatu. It gets a new samya called pratipadika, but there is nothing which says that dhatutva and pratipadikatva are mutually exclusive. So it does not say that once Pratipadika Samya comes, the Dhatutva goes away. The Dhatutva, you should remember that the Dhatutva is confined to a different Samudaya, and the Pratipadikatva is for a different thing. Pratipadikatva is taking into consideration the Kartari Kvip. Kartarathe yaha Kvip Pratyaha Kritaha Luptascha Pratyaya Lakshanena Tam Ashritya Krittadhir Samasascha iti Pratipadikatvam. Acharathe yaha Kvip Pratyaha Kritaha Luptascha அத்தவா கியச் ஆத்மன இச்சதி இத்தியர்த்தே யஹ கியச் பிரத்யஹ கிருதஹ லுப்தஷ்ச தம் ஆஶ்ரித்ய தாதுத்வம் அஸ்தி. ஸோ உபயம் யுகபத் வர்த்ததே. ஸோ போத் ஆஃப் தெம் ஆர் பிரசன்ட் டுகெதர். धातु संज्ञा अस्ति इति कारणतः सर्वत्र एरनेकाचो संयोगपूर्वत्र संयोगपूर्व असंयोगपूर्वस्य इत्यनेन यणादेशः कुमार्यौ कुमार्यः कुमार्यं कुमार्यौ कुमार्यः सर्वत्र एरनेकाचो इत्यनेन यणादेशः अगेन् वेन् यु कम् हियर् षष्ठी यु हाव् कुमार्योः सर्वत्र तथैव इति द्वितीयं कार्यम् तृतीयं कार्यं भवति नदीत्वात् सम्बुद्धिह्रस्वः हे कुमारी सु इति स्थिते अम्बार्थनद्योर्ह्रस्वः इत्यनेन ह्रस्वः एङ् ह्रस्वात् सम्बुद्धेः इति सम्बुद्धिलोपः इदं तृतीयं कार्यं नदीसंज्ञां निमित्तीकृत्य ततः आण् नद्याः ञित्सु प्रत्ययेषु ञितां प्रत्ययानाम् आडागमः भवति नद्यन्तात् परेषां ञिताम् आडागमः कुमार्यै कुमार्याः कुमार्याः इत्यत्र नदीसंज्ञां निमित्तीकृत्य आडागमः ततः नदीत्वादेव नुडागमः ह्रस्वनद्यापो नुट् इत्यनेन षष्ठी बहुवचने आम् प्रत्ययस्य नुडागमः कुमारीणाम् पुनः नदीसंज्ञानिमित्तेन ङेः आमादेशः ङेरां नद्यां नीभ्यः इत्यनेन आमादेशः आण्नद्याः इति आडागमः एरनेकाचो यु शुड् नोटिस् दट् इन् दिस् कुमार्याम् आल् कार्यस् आर् कन्वर्सिङ्ग् यु हाव् एन् आम् यु हाव् द आर्ट् यु हाव् द यण् एव्रिथिङ्ग् इस् पुट् टुगेदर् यु गेट् कुमार्याम् सो दिस् इस् वाट् विल् हेपन् दर् इस् वन् विच् डिपेण्ड्स् आन् मी there is this four which depend on nadi and there is this which depends on dhatu so kumari is a very special word which has all this happening and any other ikaranta word which you deal with will either not be a dhatu if you notice we have already seen such cases if you went to bahushreyasi it had all these bahushreyasi these five yantatvat sulopaha sambuddhi hasvaha sarvam bhavati dhatuh nasti ityatah यणादेशः नासीत् एरनेकाचो इति यणादेशः नासीत् इको यणचि इति यणादेशः भवति यत्र प्रवर्तते अत्र तु अमिपूर्वः बहुश्रेयसीन् पूर्वसवर्णदीर्घः तस्मात् ससोनः पुंसि इति भवति इफ् यु गो बेक् टु द ओरिजिनल् वातप्रमी शब्दः यः आदौ अधीतः ई औणादिकः ई प्रत्ययान्तः इट् डिण्ट् हेव् एनी आफ् दीस् रैट् इट् वास् नाट् ज्ञन्त इट् वास् नाट् अ धातु इट् वास् नाट् नदी सो नन् आफ् दीस् कार्यास् विल् हेपन् What is the default when nothing happens is ikoyanachi or some common karyas like you have rutva visarga or amipurvaha etc. Okay. Exactly. So that is to, you have to remember it very clearly that this is not, here the kumari does not mean a girl. It means a man who desires or behaves like a girl, right? So then only you have all this complication. If you have the original Kumari Shabda, it is just like Gauri Shabda. Putri, exactly. Eraneka, so will not occur. Very good. That's brilliant. His question is, if you generate like this, say Putrim Atmanaha Icchati Iti Krate Kim Bhavati. You'll have Putri. Then Eraneka Cha Sanyoga Puryasya would not apply because there is a Putri. Tyatra Sanyoga Asti. Dhatva Vayave Sanyoga. Sanyoga Asti Ityataha Tatra Yanadeshaha Nabhavati. यणादेशो न भवति चेत् किं भवति तदपि वक्तव्यं सो वाट् विल् हेपन् इफ् इट् इस् इफ् यण् विल् नाट् अप्लै नो यण् ओवरूल्ड् इयङ् रैट् अचिष्णधातु भ्रुवां युवोर् यङ् इत्यनेन इयङ् भवति पुत्र्यौ इति भवति एनी क्वश्चन्स् Kumari is actually the well this is where you have everything almost everything that comes in ikarantas so whatever we go further on is only to see which of these will apply and which will not apply and why okay so there are cases where sulopa might not happen because it is not nyanta Yes, same cases where Iranyakacho will not apply because there is a Sanyoga or there is a Nishedha, so you do Iyam, or there is no Nadi Samya, so you don't do these Karyas. Okay, that is all that is there in Ikaranta. So we will see those in the next class. Enakshara Samam Nayamadhigamya Maheshwara Atikritsnam Yakaranam Bruktan Tasmei Paninaye Namaha Makyakaram Bararuchim Bhashyakaram Patanjarim Paninim Sutrakaram Sapratosmim Nitrayam Nitrayam Namaskritya Tadukti Paribhavya Vyakarana Siddhanta Kaumudiyam Virachyate.